मनो बुद्धि अहंकार चित्तानि नाहं न च श्रोत्र जीवे न च घ्राण नेत्रे न च व्योम भूमि न तेजो न वायु चिदानंद रूपः शिवोहम् शिवोहम् चिदानंद रूपः शिवोहम् शिवोहम् न च प्राण संज्ञो न वै पंच वायु न वा सप्त धातुर्न वा पंच कोशः न वा पाणिपाद न चोपस्थ पायु चिदानंद रूपः शिवोहम् शिवोहम् चिदानंद रूपः शिवोहम् शिवोहम् न मे द्वेष राग न मे लोभ मोह मदो नैव मे न धर्मो न चार्थो न कामो न मोक्षः चिदानंद रूपः शिवोहम् शिवोहम् चिदानंद रूपः शिवोहम् शिवोहम् न पुण्यं न पापं न सौख्यं न दुःखं न मंत्रो न तीर्थं न वेदा न यज्ञा अहं भोजनं नैव भोज्यं न भोक्ता चिदानंद रूपः शिवोहम् शिवोहम् चिदानंद रूपः शिवोहम् शिवोहम् न मे मृत्युशंका न मे जाति भेदा पिता नैव मे नैव माता न जन्म न बंधुर्न मित्रं गुरुर्नैव शिष्यः चिदानंद रूपः शिवोहम् शिवोहम् चिदानंद रूपः शिवोहम् शिवोहम् अहम् निर्विकल्पो निराकार रूपो विभूर्व्याप्य सर्वत्र सर्वेन्द्रियाणां सदा मे समत्वं न मुक्तिर्न बन्धः चिदानन्दरूपः शिवोहम् शिवोहम् चिदानन्दरूपः शिवोहम्